एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा सत्तारूढेषु दलेषु सर्वकारस्य संसदस्य सम्पूर्णानि कार्याणि इतोऽपि प्रभावपूर्णानि सन्तुलितानि व्यवस्थितानि च विधातुं सहमतिर्धृता अस्ति। बालवाटारवर्तिनी प्रधानमन्त्री निवासी सत्तारूढानां दलानां शीर्षनेतृणां ह्य उपविष्टे उपवेशे सर्वकारस्य समग्रेषु कार्येषु सत्तारूढदलै कथम् एकीभूय अग्रे प्रस्तोतव्यम् इति विषये विमृष्टम् इति नेपाली कांग्रेसदलस्य प्रमुख सचेतक पदीय श्याम कुमार घिमिरे असूचयत। एवमेव उपवेशेन नेपाली कांग्रेस नेकपा एमाले दलहरूमध्ये धृताया सहमतेरनुसारेण सर्वकारस्य न्यूनतम संयुक्त कार्यक्रमाणां निर्माणस्य कृते सहमति सम्भूता अस्ति इति प्रमुख सचेतक पदीयो घिमिरे अज्ञापयत। उपवेशेन जनतायां व्याप्तं नैराश्यम् आशायां परिवर्तयितुं सर्वकारस्य कार्याणि गतिशीलानि विधातुं च विमृष्टम् इति नेकपा एमाले दलस्य प्रमुख सचेतक पदीयो महेश वर्तौला असूचयत। एवमेव सत्तारूढ दलेषु पृथक धारणायां विद्यमानायामपि सर्वकारस्य संसदस्य कार्येषु संयुक्त धारणया प्रस्तुत्यै निर्णीतमस्तीति प्रमुख सचेतक पदीयो वर्तौला अज्ञापयत। उपवेशे प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षश्च केपी शर्मा ओली नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा जनता समाजवादी दलस्य अध्यक्ष अशोक कुमार राई लोकतान्त्रिक समाजवादी दलस्य अध्यक्ष महन्त ठाकुर नागरिकोन्मुक्ति दलस्य अध्यक्ष रंजिता श्रेष्ठ जनमत दलस्य अध्यक्ष अब्दुल खान चेतेते नेतार सहभागिन आसन। प्रधानमन्त्री केपी शर्मा ओली निगदति काष्ठमण्डपस्य नदीनां तटेभ्य अतिरिक्त विंशति मीटरमितं यावत् संरचना निर्मातुं न शक्यते इति सर्वोच्च न्यायालयस्य आदेशस्य विरूद्धे सर्वकारेण शीघ्रमेव पुनरावलोकनं विधीयते। उपत्यका मार्ग विस्तार पीड़ित संघर्ष समिति नदी मापदण्ड विषय सम्बद्ध समूहस्य संयोजकेन सुमन सायमी इत्यनेन सहितस्य समूहस्य ज्ञापन पत्रं गृह्णन् प्रधानमन्त्री ओली स्थानीय जनताया सम्बद्ध समूहस्य विषयांश सम्बोधयितुं सर्वकार तत्परोऽस्तीति समस्पष्टयत्। प्रतिनिधि सभाया ह्यस्तनोपवेशन एतत् विक्रमवर्षीयं नेपाल विश्वविद्यालय विधेयकं पारितीकृतमस्ति। शिक्षा विज्ञान प्रविधि मन्त्री विद्या भट्टराई विधेयकमिदं पारितीक्रियतामिति निगद्य संसदि प्रस्तावममुं प्रास्तौत। विधेयकमाधृत्य उत्थितान् प्रश्नान् उत्तरयन्ती मन्त्री भट्टराई सूचना प्रविध्यो विस्तारेण सहैव नवीनतमेषु विषयेषु आगच्छत्सु सतिषु तेषां विषयाणां संरक्षणम् आवश्यकमस्तीति अभाषत। उपवेशे विधि न्याय मानवाधिकार समितेः सभापतिः विमला सुवेदी राष्ट्रियसभायाम् उत्पन्नं विधायेन सम्बद्ध विधेयकेन सम्बद्धायाः समितेः प्रतिवेदनं सभासमक्षं प्रास्तौत। तत्पूर्वं सांसदः जाजरकोट जनपदस्य भूकम्प प्रभाविताः जनाः वृष्टेः कारणेन विपुल समस्यासु पतितः सन्तीति विषये सर्वकारस्य ध्यानाकर्षणं विधाय तत्कालं वसतेः स्थानान्तरणाय जनतायाः समस्यानां समाधानाय च अनुरुद्धवन्तः। प्रतिनिधिसभायाः अपरोपवेशः अद्य दिवा एकवादने वसति। राष्ट्रपतिः रामचन्द्र पौडेलः नवनियुक्ताय प्रधानसेनापतेः सिग्देलाय नेपाली सेनाया प्रधान सेनापति पदस्य पदीय चिन्ह प्रदत्तवान् अस्ति। शीतल निवासवर्तिनी राष्ट्रपति कार्यालये ह्य आयोजिते समारोहे राष्ट्रपति पौडेल प्रधान सेनापति सिग्देलं पदगोपनीयतयोः शपथम् अग्राहयत्। राष्ट्रपति पौडेल सिग्देलं ह्यस्तनात् दिवसात् क्रियान्वयनाय अस्यैव भाद्रमासस्य द्वादशे दिवसे प्रधान सेनापति पदे नियुक्तवान् आसीत्। समारोहे उपराष्ट्रपतिः रामसहाय प्रसाद यादवः प्रधानमन्त्री केपी शर्मा ओली प्रधान न्यायाधीशः विश्वम्भर प्रसाद श्रेष्ठः सभामुखः देवराज घिमिरे राष्ट्रियसभायाः अध्यक्षः नारायण प्रसाद दाहालः उपप्रधानार्थमन्त्री विष्णु प्रसाद पौडेलः गृहमन्त्री रमेश लेखकः रक्षामन्त्री मानवीर राई सर्वकारस्य उच्च पदस्थाधिकारिणश्च सहभागिनः आसन्। राष्ट्रपति रामचन्द्र पौडेल निगदति ऐतिहासिक राजनैतिकोपलब्धे प्राप्ति अनन्तरमपि जनताया अपेक्षानुसारेण कार्याणाम् असम्पादनस्य कारणं निदर्शन राजनीतौ समायात रासु विद्यते। बीपी कोइराला ट्रस्ट नाम्न्या संस्थया ह्यशीतल निवासवर्तिनी राष्ट्रपति कार्यालये आयोजिते कार्यक्रमे राष्ट्रपति पौडेल सत्ता जनताया सेवायै राजनीतिक साधनं विद्यते इति अभाषत। राष्ट्रपति पौडेल बीपी कोइराला सत्ता अपेक्षया देशस्य जनतानां सहिताय सैद्धान्तिकीं निष्ठां त्यक्तवान् नासीदिति अस्मरत्। परराष्ट्रमन्त्री डॉक्टर आरजू राणा देउवा सर्वकारेण राजदूतानां नियुक्तेः समये यथासम्भवं समावेशितायाः सिद्धान्तम् अवलम्बितुं प्रयासः विहितोऽस्तीति स्पष्टीकरोति। संसदीय श्रवण समितेः ह्यस्तनोपवेशे मन्त्री डॉक्टर राणा राजदूतानां नियुक्तौ समावेशितायाः सिद्धान्ते अवलम्बिते सत्यपि कतिपय प्रश्नाः उत्थिताः इत्यतः श्रवण समितेः परामर्शं निर्देशनं च सर्वकारेण श्रूयते क्रियान्वयनं विधीयते चेति प्रतिबद्धतां व्यक्तवती। नेकपा एमाले दलस्य सचिवालयोपवेशः अस्यैव भाद्रमासस्य अष्टाविंशे दिवसे वस्ता। एमाले दलस्य केन्द्रीय कार्यालयस्य सचिव डॉ भीष्म अधिकारी दलस्य वार्षिक कार्ययोजनायां सामयिक राजनीतिक विषयेष् च उपवेशे विमृक्ष्यते इति असूचयत्। अस्यैव भाद्रमासस्य अष्टादश एकोनविंश दिवसयोः उपविष्टात् पोलिट्ब्यूरो उपवेशात् प्राप्तानां परामर्शानाम् आधारेण सचिवालयेन वार्षिक कार्ययोजनां निष्कर्षे प्रापयित्ं सहमतिर्धृता आसीत्। रेडियो नेपालस्य नवनियुक्तः कार्यकारी निर्देशकः अमरध्वज लामा ह्य पदभारं निरवहत्। पदभारं निर्वहन् नवनियुक्तः कार्यकारी निर्देशकः लामा रेडियो नेपालस्य प्रसारम् अतिरिक्तं समावेशी व्यावसायिकञ्च विधातुम् आत्मना यथासम्भवं प्रयतिष्यते इति प्रतिबद्धतां व्यक्तवान्। कार्यकारी निर्देशकः लामा प्रसारण सेवायाः विकासाय विस्ताराय च सामूहिक प्रयासस्य आवश्यकता भवतीति चर्चयन् एकीकृत कार्ययोजनां निर्माय अग्रे वर्धिष्यते इति प्रतिबद्धताम् अभिव्यनयत्।